पञ्चामृतैर्गन्धसुधूपदीपैः विचित्रपुष्पैरिदैश्च मन्त्रैः अन्नप्रकारैः सकलोपचारैः सम्पूजितं सोममहं नमामि।